ओम नमो भगवते वासुदेवाय। अथ त्रयोदशोऽध्यायः। श्री शुक उवाच। निमिरिक्ष्वाकुतनयो वसिष्ठमवृतर्त्विजम्। आरभ्य सत्रम् सोऽप्याह शक्रेण प्रागृतोऽस्मि भोः। तम् निर्वर्त्यागमिष्यामि तावन्माम् प्रतिपालय। तूष्णीमासीत् गृहपतिः सोऽपीन्द्रस्याकरोन्मखम्। निमिश्चलमिदम् विद्वान् सत्रमारभतात्मवान्। ऋत्विग्भिरपरैस्तावन्नागमत् यावता गुरुः। शिष्यव्यतिक्रमम् वीक्ष्य निर्वर्त्य गुरुरागतः। अशपत्पतताद्देहो निमे पण्डितमानिनः। निमिः प्रतिददौ शापम् गुरवे धर्मवर्तिने। तवापि पतताद्देहो लोभाद्धर्ममजानतः। इत्युत्ससर्ज स्वम् देहम् निमिरध्यात्मको विदः। मित्रावरुणयोर्जज्ञे उर्वश्याम् प्रपितामहः। गन्धवस्तुसु तद्देहम् निधाय मुनिसत्तमाः। समाप्ते सत्रयागेऽथ देवानूचुः समागतान्। राज्ञो जीवतु देहोऽयम् प्रसन्नाः प्रभवो यदि। तथेत्युक्ते निमिः प्राह माम् भून्मे देहबन्धनम्। यस्य योगम् न वाञ्छन्ति वियोगभयकातराः। भजन्ति चरणाम् भोजम् मुनयो हरिमेधसः। देहम् नावरुरुत्सेहम् दुःखशोकभयावहम्। सर्वत्रास्य यतो मृत्युर्मत्स्यानामुदके यथा। देवा ऊचुः। विदेह उष्यताम् कामम् लोचने सुशरीरिणाम्। उन्मेषणनिमेषाभ्याम् लक्षितोऽध्यात्मसंस्थितः। अराजकभयम् नृणाम् मन्यमाना महर्षयः। देहम् ममन्थुः स्म निमेः कुमारः समजायत। जन्मना जनकः सोऽभूत् वैदेहस्तु विदेहजः। मिथिलो मथनाज्जातो मिथिला येन निर्मिता। तस्मादुदा वसुस्तस्य पुत्रोऽभून्नन्दिवर्धनः। ततः सुकेतुस्तस्यापि देवरातो महीपते। तस्माद् बृहद्रथस्तस्य महावीर्यः सुधृत्पिता। सुधृतेर्दृष्टकेतुर्वै हर्यश्वोऽथ मरुस्ततः। मरो प्रतीपकस्तस्माज्जातः कृतिरथो यतः। देवमीठस्तस्य सुतो विश्रुतोऽथ महाधृतिः। कृतिरातस्ततस्तस्मान्महारोमाथ तत्सुतः। स्वर्णरोमासुतस्तस्य ह्रस्वरोमा व्यजायत। ततः शीरद्भजो यज्ञे यज्ञार्थम् कर्षतो महीम्। सीताशीराग्रतो जाता तस्मात् शीरध्वजः स्मृतः। कुशध्वजस्तस्य पुत्रस्ततो धर्मध्वजो नृपः। धर्मध्वजस्य द्वौ पुत्रौ कृतध्वजमितध्वजौ। कृतध्वजात् केशिध्वजः खाण्डिक्यस्तु मितध्वजात्। कृतध्वजसुतो राजन्नात्मविद्याविशारदः। खाण्डिक्यः कर्मतत्त्वज्ञो भीतः केशिध्वजाद्धृतः। भानुमान्स्तस्य पुत्रोऽभूच्छतद्युम्नस्तु तत्सुतः। शुचिस्तत्तनयस्तस्मात् सनद्वाजस्ततोऽभवत्। ऊर्ध्वकेतु सनद्वाजादजोऽथ पुरुजित्सुतः। अरिष्टनेमिस्तस्यापि श्रुतायुस्तत्सुपार्श्वकः। ततश्चित्ररथो यस्य क्षेमधिर्मिथिलाधिपः। तस्मात् समरथस्तस्य सुतः सत्यरथस्ततः। आसीदुपगुरुस्तस्मादुपगुप्तोऽग्निसम्भवः। वस्वनन्तोऽथ तत्पुत्रो युयुधो यत्सुभाषणः। श्रुतस्ततो जयस्तस्माद् विजयोऽस्मादृतः सुतः। शुनकस्तत्सुतो यज्ञे वीतहव्यो धृतिस्ततः। बहुलाश्वो धृतेस्तस्य कृतिरस्य महावशी। एते वै मैथिलाराजन्नात्मविद्याविशारदाः। योगेश्वरप्रसादेन द्वन्द्वैर्मुक्ता गृहेष्वपि। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् नवमस्कन्धे निमिवंशानुवर्णनम् नाम त्रयोदशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्। यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।